चपलो दैत्यान् बाल्ये विनाशयत्यहम् अग्रे किं कर्म कर्तेति न जाने मुनिसत्तमा। दैत्यानाविधा दुष्ट साधुदेवत्रहखराः अतोऽस्य कण्ठे किञ्चित् त्वं रक्षार्थं बद्धुमर्हसि। विनायकमं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनमं षड्बाहुकं सिद्धिदं द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये तु त्रिभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा। विनायकः शिखां पातु परमात्मा परात्परः सुन्दरकायस्तु मस्तकं सुमहोत्कटः। ललाटं कश्यपः पातु भ्रूयुगं तु ममोदरः। नयने बालचन्द्रस्तु गजास्य स्तुष्टपल्लवौ। जुह्वां पातु गणः क्रीडश्चिबुकम् गिरिजासुतः। वाचं विनायकः पातु दन्तान् रक्षतु विघ्नः। श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थकः। गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः। पातु गजस्कन्धः स्तनौ विघ्नविनाशनः। हृदयं गणनाथस्तु हेरम्बो जठरं महान्। धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः। लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः। जानुजङ्घे ऊरु मङ्गलमूर्तिमान्। एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु। क्षिप्रप्रसादनो बाहु पाणी आशाप्रपूरकः। अङ्गुलीश्च नखान् पातु पद्महस्तोरिनाशनः। सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु। अनुक्तमपि यत्स्थानं धूम्रकेतुः सदावतु। आमोदस्त्वक्रतः पातु प्रमोदः पृष्ठतोऽवतु। प्राच्यां रक्षतु बुद्धिश आज्ञेयां सिद्धिदायकः। दक्षिणस्यामुमा पुत्रो नैऋत्यां तु गणेश्वरः। प्रतिज्ञां विघ्नहर्ताव्यात् वायव्यां गजकर्णकः। द्रौपेर्यां निधिपः पायात् ईशान्यामीशनन्दनः। दिवव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नरत्। राक्षसासुरवेताल ग्रहभूतपिशाचतः। पाशाङ्कुशधरः पातु रजः सत्त्वतमः स्मृतिः। ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलं बुभुर्धनं च धान्यं च गृहान्तारासुतान् सखीन्। सर्वायुधधरः पौत्रान् मयूरेशोऽवतात् सदा। कपिलो जाविकं पातु गजाश्वान् विकटोऽवतु। भोर्जपत्रे लिखित्वेदं यः कण्ठ युद्धे धारयेत् सुधीः नभयं जायते तस्य यक्षरक्षः पिशाचतः त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् काले पठेद्यस्तु विजयं प्राप्नुयादृतं मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि सप्तवारं जपेदेतत् दिनानामेकविंशतिं तत्फलम् अवाप्नोति साधको नात्र संशयः पठेत्तावद्दिनानि यः कारागृहगतं सद्यो राज्ञावध्यं च मोचयेत् राजदर्शनवेलायां पठेदेतत्त्रिवारतः स राजानं वशं नीत्वा प्रकृतिश्च सभां जयेत् गणेशकवचं कश्यपेन समीरितं मुद्गलाय च तेनाथ मांडव्याय महर्षये मह्यं सप्राह कृपया कवचं सर्वसिद्धिदं न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ज्ञानेन कृता रक्षा न बाधास्य भवेत् क्वचित् राक्षसासुरवेताल दैत्यदानव संभवा इति श्री गणेश पुराणे गणेश कवचं सम्पूर्ण